गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर गुरु साक्षात परब्रह्म तस्मै श्री गुरवे नमः। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र अभावः। अभावः इति विषये तत्र वयं पूर्वं त्रैविध्यं दृष्टवन्तः, किन्तु इदानीं तत्र तस्य अग्रे गत्वा इदानीं तत्र वयं तत्र प्रागभावः तत्र प्रध्वंस अभावः इति सर्वं गतवर्गे दृष्टवन्तः। अपि अद्य प्रायशः तत्र कारणम् इति विषयस्य ज्ञानं प्राप्त्वा तदनन्तरं तत्र अन्योन्यभावः इति तत्र अन्योन्यभावः इति नूतन विध अभावः भवति अद्य वा अथवा अग्रिमे वर्गे भवति वा न जानीमः, किन्तु तत्र वयं मार्गे स्मः, तत्र अन्योन्यभावस्य मार्गे वयं स्मः। गतवर्गे तत्र ये विषयाः वयम् अतीतवन्तः तान् आदाय अद्य नीता भगिन्याः उपस्थापनं वर्तते, अतः कृपया भगिनी।
नमो नमः आचार्य, सर्वेभ्यो नमो नमः। गतसप्ताहे यान् विषयान् वयं पठितवन्तः तेषु प्रथमबिन्दुः निरूप्यनिरूपकभावः, अवच्छेद्य अवच्छेदकभावः च सर्वत्र वर्तते। यथा आधेयता अधिकरणतयोः मध्ये निरूप्यनिरूपकभावः अस्ति, तथा अवच्छेद्य अवच्छेदकभावयोः मध्ये अपि निरूप्यनिरूपकभावः वर्तते। यज्ञदत्तः आसने अस्ति, एषा स्थितिः। अवच्छेदकता यज्ञदत्तत्वे वर्तते, अवच्छेद्यता आधेयतायाम् अस्ति, अतः आधेयता अवच्छेद्या अस्ति। यज्ञदत्ते यज्ञदत्तत्वं वर्तते, यज्ञदत्ते आधेयता अपि वर्तते, द्वौ एकस्मिन् एव अधिकरणे स्तः, अतः समानाधिकरणम् इति उच्यते। यज्ञदत्तनिष्ठ यज्ञदत्तत्व निष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रयः यज्ञदत्तनिष्ठ आधेयता। यज्ञदत्ते आधेयता अस्ति, आसने अधिकरणता अस्ति, अस्याः अधिकरणतायाः अवच्छेदकम् आसनत्वम्। अवच्छेदकत्वम् आसनत्वम् इति स्वीकृत्य विशिष्टा अधिकरणतायाः विवरणं वयं कर्तुं शक्नुमः। आसनत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रय अधिकरणताश्रयः आसनम्। एषा अधिकरणता आधेयतयोः मध्ये अपि निरूप्य निरूपकभावः वर्तते। यदि लेखनी उत्पीठिकायाम् अस्ति इति वाक्यं स्वीकुर्मः, तदा दीर्घवाक्यं येन प्रकारेण भवति, उत्पीठिका अधिकरणं लेखनी आधेय। लेखनीत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रय लेखनीनिष्ठ आधेयता निरूपित उत्पीठिकत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रय अधिकरणता आश्रयः उत्पीठिका। अधियानविषयस्य द्वितीयबिन्दुः अभावस्य चतुर्विधत्वम्। अभावः चतुर्विधः। प्रथमप्राक् अभावः, प्रध्वंसः अभावः, अत्यन्तः अभावः, अन्योन्यः अभावः। अत्यन्तः अभावः एतस्मिन् त्रयः प्रभेदाः, सामान्य अभावः, विशेष अभावः, विशेषविशेष अभावः। प्राक् अभावः घटनिर्माता घटनिर्माणाय मृदं जलं चक्रं च एतानि साधनानि सज्जीकरोति। घटसामग्रीं दृष्ट्वा अत्र घटः भविष्यति इति ज्ञानम् उदेति। घटः नास्ति, घटाभावः अस्ति, किन्तु घटसामग्रिभिः घटनिर्माणं भविष्यति इति ज्ञातव्यम् अयं घटप्राक् अभावः। सामग्रीसत्त्वे घटाधिकरणे अयं भावः घटोत्पत्तेः प्राक् प्रतीयते। घटनिर्माणस्य पूर्वे घटप्राक् अभावः ज्ञायते, घटनिर्माणानन्तरम् एषः भावः नश्यति, अतः घटः प्रतियोगिः भवति, अभावः अनुयोगिः भवति। तयोः सह अनवस्थारूपः विरोधः। एतस्मिन् स्थाने सह अनवस्थानं भवति। प्राक् अभावः घटस्य निर्माणात् पूर्वं वर्तते, घटस्य निर्माणानन्तरं नश्यति, अतः घटनिष्ठप्रतियोगिता निरूपिता अनुयोगिताश्रय घटप्राक् अभावः। प्रध्वंस अभावः। घटध्वंसः जायते इति प्रत्ययः अयं प्रध्वंसः अभावः। मुद्गरपातनेन घटध्वंसः भवेत् वा अन्यकारणेन घटः नश्येत्, घटः अस्ति किन्तु घटः न भविष्यति इति भासते, अयं प्रध्वंसः अभावः। प्राग् अभावः घटनिर्माणसमये नश्यति। प्राग् अभावस्य आदिः नास्ति, अन्तः अस्ति। प्रध्वंसः अभावस्य आदि अस्ति, अन्तः नास्ति इति भेदः द्वयोः मध्ये। भूतले घटः नास्ति इति अत्यन्त अभावः। घटे प्रतियोगिता अस्ति, प्रतियोगितायाः अवच्छेदकम् अस्ति घटत्वम्। अतः प्रतियोगिता अवच्छेद्यतावती अस्ति, तस्याः निरूपकः अभावः। अतः घटत्वनिष्ठ अवच्छेदकता निरूपिता अवच्छेद्यतावती प्रतियोगिता। घटत्व अवच्छिन्न प्रतियोगिता कः? घटाभावः। यथा गतवर्गे आचार्यः उक्तवान्, एतादृशः प्रयोगः अनेकवारम् अग्रे भवति, अतः अस्माभिः एतत् स्मर्तव्यम्। यस्य प्रतियोगिता अस्ति सः अभावः, घटत्व अवच्छिन्न प्रतियोगिता कः? घटाभावः। अन्तिमबिन्दु, अभावः केन सम्बन्धेन भवति? विषये संयोगः द्रव्ययोः मध्ये एव अस्ति इति नियमात् अभावः प्रतियोगिता अनुयोगिता संयोगेन सम्बन्धाः न भवन्ति। यतोहि अभावः न कर्मः, न धर्मः, न जातिः, न क्रिया, न गुणः, न अवयवः वा तस्य भागः, अतः न समावायेन सम्बन्धाः। द्रव्ययो मध्ये समवायः अपि भवति, किन्तु संयोगः द्रव्यं विहाय अन्यत्र न भवितुम् अर्हति। अतः अभावादि पदार्थानाम् आधार आधेयभावनिर्वाहाय स्वरूपसम्बन्धः इति नूतनः सम्बन्धः विधीयते। अस्तु, धन्यवादाः।
धन्यवादः भगिनी, समीचीनमासीत्। सर्वानंशान् भवती सम्यक्तया प्रतिपादितवती, धन्यवादः। सर्वेषां मनसि इदानीं तत्र पुनस्मरणं जातम् इति मन्ये। अतः तत्र इदानीम् अग्रे सरामः। तत्र इदानीं तत्र पुटसङ्ख्या अस्ति 28। तत्र गतवर्गे अथवा तस्मात् प्राक् तत्र केचन प्रश्नाः आसन्, तस्मिन् विषये अहं तत्र एकं लघु खरुपत्रं तत्र अस्ति, तत् तद् उपयुज्य किञ्चित् अद्यतनवर्गः भवतु इति चिन्तनम् एकनिमिष तत्र अत्र प्रेषितवान् तत्र चाट् मध्ये सर्वे प्राप्तवन्तः वा नो चेत् तत्र मेल् मध्ये अपि अहं प्रेषयामि इदानीं चाट् मध्ये सर्वे प्राप्तवन्तः अथवा मेल् मध्ये प्रायशः सर्वे प्राप्नुवन्ति इति मन्ये
आचार्य चाट् वाट्साप् चाट् वा अत्र वा
न न न क्षम्यतां तत्र वाट्साप् चाट् मध्ये अपि प्रेषितुं शक्नोमि तदपि समीचीनं भगिनि किन्तु तत्र फ्री कान्फरेन्स् चाट् मध्ये प्रेषितवान् एकनिमिष तद् प्रायशः तत्रापि अहं प्रेषितुं
अत्र नास्ति महोदय
प्रेषितवान् मेल् मध्ये अहं प्रेषितवान् मेल् मध्ये प्राप्तवन्तः वा
आम् आम्
अस्तु तत्र एकनिमिष तत्र चाट् मध्ये तत्र वाट्साप् मध्ये अपि प्रेषितुं शक्नोमि एकनिमिषः तत्र सर्वे प्राप्तवन्तः चेत् वाट्साप् मध्ये तस्य आवश्यकता नास्ति चेत् तत्र सर्वे प्राप्तवन्तः वा चाट् मध्ये अथवा मेल्
ईमेल् द्वारा
प्राप्तम्
अत्र एफ् सि सि चाट् मध्ये तु न दत्तं महोदय
अहं प्रेषितवान् महोदय इदानीं तत्र हा अस्तु 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 गणे अस्तु अस्तु एकनिमिषः भगिनि तर्हि एकनिमिषः तत्र मेल् माध्यमे तत्र एकनिमिषः क्षम्यतां तत्र किम् अभवत् एकनिमिषं पुनः पश्यामि तत्र कथं वा अथवा अन्य कोऽपि यस्य पार्श्वे अस्ति सः तत्र वाट्साप् मध्ये प्रेषितुं शक्नोति वा यतोहि तत्र वर्गं भवेत् तत्र अन्य कोऽपि यस्य यः तत्र यः त्वया तत्र प्राप्तवान् अत्र प्राप्तवती कृपया तत्र वाट्साप् मध्ये अपि प्रेषयतु
महोदय करपत्रसङ्ख्या किं महोदय
करपत्र स्वरूप महोदयस्य करपत्रं नास्ति महोदय अहं तत्र भवान् तत्र मध्ये प्रेषितवान् तत्र एकनिमिषं महोदय तत्र वाट्साप् मध्ये प्रेषितवान् किन्तु तत्र
नास्ति तत्र
वाट्साप् मध्ये अत्र यदि अन्य कोऽपि प्रेषितुं शक्नोति चेत् कृपया प्रेषयन्तु
सर्वे भाषणानि
अहम् इदानीं प्रयत्नं कृतवान् किन्तु तत्र समयः अपि गच्छति अतः तत्र अन्य कोऽपि यदि तत्र प्राप्तवान् अथवा प्राप्तवती कृपया तत्र वाट्साप् मध्ये प्रेषयतु
न वाट्साप् मध्ये एकं ग्रूप् इव अस्ति वा अस्माकं
अस्ति भगिनि अस्ति
तत्र अहं नास्मि वा अतः
इदानीम् अशोक् मध्ये प्रेषितवान् अत्र किन्तु अत्र तत्र वाट्साप् मध्ये पश्यन्तु धन्यवादः अस्तु अस्तु तर्हि इदानीं तत्र किञ्चित् पश्यामः तत्र किं किम् अस्ति इति अतः तत्र एकमेकं स्वीकृत्य तत्र किञ्चित् वदन्तु तर्हि तत्र अस्तु तत्र शर्वाणि भगिनी तत्र प्रथमं कर्तुं शक् प्रयत्नं करोति वा भगिनि शर्वाणि भगिनी अस्तु तर्हि तत्र सुधा भगिनी
अस्तु महोदय
हा तत्र प्रथमे पुटे
अस्तु अत्र आसनं यज्ञदत्तः इति अस्ति आसने अधिकरणता अस्ति आसननिष्ठ अधिकरणतानिरूपित आदेयता आश्रय यज्ञदत्तः इति अस्ति
इति अस्ति तत्र अस्माकं लक्ष्यमस्ति यज्ञदत्तः यज्ञदत्तः कीदृशः इति वक्तुम् इच्छामश्चेत् एतादृशक्रमः भवति खलु अस्तु इदानीं द्वितीयं
द्वितीय अस्ति आसनं कीदृशम् इत्युक्ते यज्ञदत्तनिष्ठ आदेयतानिरूपित अधिकरणता आश्रय आसनं
हा इति अस्तु समीचीनं भगिनि अस्तु इदानीं तृतीयविधम्
एकनिमिषम् अस्तु तृतीय अस्ति अधिकरणता कीदृश अधिकरणता कुत्र अस्ति इति यज्ञदत्तनिष्ठ आदेयतानिरूपित आसननिष्ठ अधिकरणता
हा इति अस्ति समीचीनम् इदानीम् एतादृशवाक्यं वयं कुर्मः तत्र यज्ञदत्तनिष्ठ आदेयतानिरूपित आसननिष्ठ अधिकरणता इति किन्तु तादृशवाक्ये तत्र तादृशवाक्ये इदानीं तत्र तादृशवाक्यं स्वीकुर्मः अग्रिमे तत्र द्वितीयपुटे तादृशवाक्यं स्वीकुर्मः तत्र आसननिष्ठ अधिकरणतानिरूपित आदेयता आश्रयः यज्ञदत्तः इति इदानीं तत्र तत्र अनेके समासाः अन्तर्भूताः सन्ति समासगर्भवाक्यम् अस्ति अतः तत्र समास कीदृशसमासाः तत्र सन्ति इति तस्मिन् विषये किञ्चित् चिन्तनं कुर्मः तत्र प्रश्नः आसीत् अतः तत्र प्रथमतया आसननिष्ठा इति तत्र कः समासः इति कोऽपि वदति वा तत्र आसननिष्ठा इति सुधा भगिनी यदि भवती जानाति अथवा अन्य कोऽपि वक्तुम् इच्छति चेत्
अहं न जानामि
हा चिन्ता मास्तु भगिनि हा अस्तु अन्य कोऽपि आसने निष्ठा आसने निष्ठा
सप्तमी
तत्पुरुषसमासः तत्र सप्तमी तत्पुरुषसमासः भवति तत्र समीचीनं हा अस्तु अग्रे तत्र का उक्तवती तत्र पद्मा भगिनी वा उक्तवती अस्तु पद्मा भगिनी भवती एव अग्रिमं तत्र आसननिष्ठाधिकरणता तत्र किम् अस्ति
आसननिष्ठाधिकरणता
न आसननिष्ठा इति पदं प्राप्तं तत्र सप्तमी तत्पुरुष इदानीम् आसननिष्ठा इति एकं पदम् अन्यत् पदम् अस्ति अधिकरणता तयोः
आसननिष्ठा अधिकरणता तत्र तत्पुरुष
षष्ठीतत्पुरुष
अनिष्ठायाः इति भवति वा
न न निष्ठायाः अधिकरणता न तत्र किम् अस्ति अधिकरणता कीदृशी इति अस्ति खलु आसननिष्ठा इति विशेषणं भवति वा
कर्मधारे समासः
समीचीनं हा समीचीनं तत्र कर्मधारया अतः तत्र आसननिष्ठा विशेषणम् अधिकरणता विशेष्यं समानविभक्ति समानलिङ्गं सर्वं भवेत् समान अतः तत्र कर्मधार्यसमासः इदानीम् अग्रे गसरामः तत्र इदानीं तत्र अधिकरणता इति अस्ति किन्तु अग्रे तत्र अधिकरणता निरूपिता इति अस्ति तत्र किम् अस्ति पद्मभगिनी अधिकरणता निरूपिता तत्र
अधिकरणतायाः निरूपिता
न न
तृतीया
हा तृतीया अधिकरणतया अधिकरणम् अधिकरणता उपयुज्य निरूपणं भवति अतः अधिकरणतया निरूपिता इति तत्र तृतीया तत्पुरुष अधिकरणता निरूपिता इति भवति इदानीम् अग्रे अधिकरणता निरूपिता इति अस्ति तद्भागं स्वीकृत्य तस्य अनन्तरं किम् अस्ति आदेयता तत्र किम् अस्ति किं भगिनि कर्मधारयसमासः पुनः कर्मधारे समासः इदानीम् अन्ते तत्र आदेयता याः आश्रयः अस्ति षष्टि तत्पुरुष अतः तत्र अस्मिन् वाक्ये अनेके तत्र समासाः सन्ति समासगर्भवाक्यम् अस्ति अतः तत्र यज्ञदत्तः कीदृशः इत्युक्ते तत्र आसननिष्ठ अधिकरणता निरूपित आदेयता आश्रयः यज्ञदत्तः इति भवति इदानीं तत्र पुनः तत्र उपरि गच्छामः तत्र उपरि यद्वाक्यमासीत् तत्र यज्ञदत्तः आदेयता अधिकरणता आसनम् इति यत्र चित्रमस्ति तत्र आसननिष्ठ तत्र केवलम् अकारः वर्तते किन्तु अधिकरणता तत्र दीर्घ आकारः वर्तते पुनः निरूपित अकारः आधेयता दीर्घ आकारः इति अस्ति तत्र किमर्थं तत्र ह्रस्वाकारः कुत्रचित् दीर्घाकारः एव भवेत् इति प्रश्नः तत्र न जानामि कः पृष्टवान् अथवा का पृष्टवती किन्तु प्रश्नः आसीत् अतः तत्र कुत्र ह्रस्वाकारः भवति तत्र नियमः अस्ति तत्र पश्यामः तत्र आसननिष्ठा इति अस्ति तत्र द्वितीयबिन्दुं पश्यामः आसननिष्ठा योगः अधिकरणता तत्र आसननिष्ठ अधिकरणता इति अभवत् तत्र किमर्थम् इत्युक्ते तत्र आसननिष्ठा इति एव तत्र प्रातिपदिकं खलु निष्ठा इति दीर्घ आकारः भवेत् किन्तु ह्रस्वाकारः अस्ति तत्र पुंभावः इति तत्र नियमः अस्ति पुंभावात् तत्र ह्रस्वाकारः भवति अतः तत्र आसननिष्ठा तत्र कुत्र पुंभावः भवति तत्र आसननिष्ठा इति तत्र विशेषणमस्ति त्रिषु लिङ्गेषु भवति तत्र पुंभावः भवति अतः तत्र आसननिष्ठ इति ह्रस्व अकारः अग्रे तत्र तृतीयबिन्दौ तत्र अधिकरणतया निरूपिता तत्र अधिकरणता निरूपिता इति अस्ति तत्र किमर्थम् अधिकरणत इति न अभवत् किमर्थं तत्र ह्रस्वकारः नास्ति अधिकरणता
कादिपदिकम् अधिकरणतः एव श्रीलिङ्गे
सत्यं किन्तु तत्र अधिकरणता इति थल् प्रत्ययेन वयं प्राप्तवन्तः इति एतत् नित्यस्त्रीलिङ्गपदम् अतः तत्र तस्य भेदः न तत्र परिवर्तनं न भवति यत्र विशेषणत्वेन पदं भवति तत्र त्रिषु लिङ्गेषु भवति तत्र पुंभावः पुंभावस्य नियमेन तत्र ह्रस्वाकारः किन्तु अत्र तु नित्यस्त्रीलिङ्गपदम् इति कृत्वा तत्र अधिकरणता इति एव भवति पुनः चतुर्थबिन्दौ निरूपित निरूपित तत्र अपि तु तत्र विशेषणम् अस्ति निरूपित निरूपितः निरूपितं निरूपिता इति तत्र विशेषणं तत्र त्रिषुलिङ्गेषु भवति इति कृत्वा पुंभावात् निरूपित इति ह्रस्वाकारः इति भवति अतः तत्र ह्रस्वाकारः दीर्घाकारः कुत्र कुत्र इति तत्र सर्वदा ह्रस्वाकारः इति नास्ति सर्वदा दीर्घाकारः इति नास्ति अतः तत्र भेदः वर्तते इति अपि समासाः तत्र भिन्नाः भवन्ति तत्र तत्पुरुषः अस्ति कर्मधारयापि अस्ति अस्मिन् वाक्ये एतेन ज्ञानेन तत्र कीदृश तत्र विवरणं भवति यज्ञदत्तस्य इति मम अस्माकं मनसि सम्यक्तया भवेत् तत्र अस्तु कोऽपि प्रश्नः वा अस्मिन् विषये तत्र इदानीं तत्र दीर्घवाक्यस्य निर्माणं कथम् अभवत् इति सर्वे अवगतवन्तः वा अना भगिनी प्रश्नः
पुनः अहं वदामि आसननिष्ठ ह्रस्व अधिकरणता अधिकरणता ह्रस्व आव
दीर्घाकारः
आसननिष्ठ
तल् प्रत्यय तत्र निष्ठा इति उपरि चित्रस्य चित्रमस्ति खलु भगिनि द्वितीयपुटे उपरि तत्र अहं ह्रस्वाकारः दीर्घाकारः इति तत्र सङ्केतं कृतवान्
ओके आसननिष्ठा ह्रस्व अधिकरणता दीर्घ ह्रस्व अध्येयता आश्रयः परन्तु अध्येयता आश्रयः इस् अत्र अध्येयता अपि दीर्घ वा
हा तत्र क्षम्यतां तत्र आधेयता हा तत्र दीर्घ यतोहि तत्र तल् प्रत्ययः आधेयता भावः आदेयत नित्य तत्र नित्यस्त्रीलिङ्गरूपं तत्र दीर्घ आकारः
इत्युक्ते अधिकारणता अधेयता नित्यस्त्रीलिङ्गं तेन कारणेन
सत्यं अपि तत्र निरूपित तत्र विशेषणम् इति अस्ति स्त्रीलिङ्गेषु भवति अत्र ह्रस्वकारः निष्ठ निष्ठः निष्ठा निष्ठम् इति तत्रापि ह्रस्वकारः समीचीनं वा
आम् आम् आम्
अस्तु तर्हि अग्रे सरामः तर्हि इदानीं तत्र तादृशवाक्यं तत्र यदि पश्यामः एते अंशाः तत्र सन्ति इति मनसि भवेत् अस्तु अन्यः विषयः तत्र गतवर्गे आगतं तत्र तृतीयपुटे अस्ति तत्र तस्य नाम रमेशः रमेशनामकः सः अस्ति सः कः सः रमेशनामकः इति वदामश्चेत् वयं अवगच्छामः तस्य नाम रमेशः इदानीं तत्र प्रतियोगी अनुयोगी इति अस्माकं व्यवहारः अस्ति तत्र घटः घटे प्रतियोगिता अस्ति अतः घटः प्रतियोगी घटः भावः अनुयोगी इति वदामः यतोहि तस्मिन् अनियोगिता अस्ति अनियोगी इति पुल्लिङ्गरूपम् इनि प्रत्ययेन स्त्रीलिङ्गे अनियोगिनी इति भवति अपि नपुंसकलिङ्गे अनियोगी ह्रस्वाकारः भवति तत्र कस्य प्रतियोगिता तत्र नीता भगिनी अपि एतत् उक्तं तत्र कस्य प्रतियोगिता अभावस्य यत्र अभावः अस्ति तत्र यस्य क्षम्यतां यत्र प्रतियोगिता अस्ति चेत् तत्र अभावः भवेत् एव खलु अत्र प्रतियोगिता अस्ति तस्याः सम्बद्ध अभावः अस्ति तम् अभावं सूचितुं शार्ट्कट् अस्ति नाम प्रतियोगिता कः इति नाम कस्य प्रतियोगिता अभावस्य प्रतियोगिता अतः अभावः कः भवति प्रतियोगिता कः यस्य प्रतियोगिता अस्ति सः प्रतियोगिका कः प्रतियोगिता कः अतः अत्र अभावः अस्ति प्रतियोगिता कः अत्र अस्ति एषः अभावः अस्तु इदानीं तस्मिन् विषये कोऽपि प्रश्नः अस्ति वा तत्र प्रतियोगिका कः नाम कः इति तस्य प्रयोगः अत्र अस्ति अस्तु अग्रे कोऽपि प्रश्नः अथवा अग्रे गन्तुं शक्नुमः वा अस्तु अग्रे तर्हि इदानीं तृतीय अंशः इदानीं तत्र वयं दृष्टवन्तः तत्र वर्गे तत्र घटः अस्ति प्रतियोगिता घटे प्रतियोगिता अस्ति घटः भावे अनियोगिता अस्ति तत्र प्रतियोगिता अवच्छेद्या अस्ति अनियोगिता अपि अवच्छेद्या अस्ति प्रतियोगिता अपि अनियोगिता अवच्छेदकं भवति तत्र घटत्वम् अपि घटाभावत्वं यथा नीता भगिन्या उक्तं किन्तु तत्र वयम् एतादृशं वाक्यं कृतवन्तः खलु तत्र उक्तम् अपि तत्र किन्तु तस्मात् प्राक् तत्र एकः अंशः अत्र अस्ति नाम अवच्छेद्य अपि अवच्छेदकं तत्र घटत्वं प्रतियोगिता घटत्वम् अवच्छेदकं प्रतियोगिता अवच्छेद्यता द्वयोः अपि तत्र घटे स्तः अतः तत्र समान अधिकरणं नाम तयोः समानाधिकरण्यम् इति वदामः अपि अनियोगिता घटाभावत्वं तत्रापि अवच्छेदकम् अपि अवच्छेद्यम् अवच्छेद्या अस्ति तत्रापि समानाधिकरण्यम् अस्ति इदानीं तत्र अस्माकं शार्ट्कट् अस्ति तत्र अधोभागे यदि पश्यामश्चेत् घटत्व निष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः प्रतियोगिता इति अनुक्त्वा वयं किं वदामः घटत्वावच्छिन्न प्रतियोगिता इति वदामः तत्र शार्ट्कट् अस्ति तथैव तत्र घटाभावत्वावच्छिन्न अनियोगिता नाम घटाभावत्वम् एव अवच्छेदकः अवच्छेदकम् इति ज्ञानं भवेत् अतः केन अवच्छिन्न घटाभावत्व यदस्ति तेन अवच्छिन्न अनियोगिता इति अतः तत्र शार्ट्कट् अस्ति तत्र अवच्छिन्न इति नूतनपदं भवेत् किन्तु भिद्यते इति क्रियापदात् भिन्नः इति भवति तथैव अवच्छिद्यते तः अवच्छिन्नः इति तत्र कृत् प्रत्ययः क्षम्यतां तत्र लेखनदोषः अस्ति. क्षम्यतां, कृत् न, क्तप्रत्ययः कर्मणि प्रयोगे कर्मणि रूपम् अस्ति तत्र. केन तत्र किमपि तत्र कर्मणि रूपं तत्र कर्मपदं सूचयति. अवच्छिन्न यत्र अस्ति तत्र वयं किं जानीमः इदानीं, किमपि अस्ति निष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः अपि तदनन्तरं किमपि अस्ति, तत् शार्ट्कट् भवति. इदानीं तत्र अग्रे अग्रे सरामः. तत्र इदानीं तत्र घटः नास्ति, घटः भविष्यति, घटः नास्ति किन्तु आसीत् इति, तदेव प्रध्वंसाभावः अपि प्रागभावः इति तावत्पर्यन्तम्. इदानीम् अद्यतनविषयः अस्ति तत्र अन्योन्याभावः अद्य भवति न वा इति न जानामि, किन्तु प्रायशः तत्र घटः पटः न इति अन्योन्याभावः इति तावत्पर्यन्तं. किन्तु केवलं तत्र सर्वेषां मनसि सम्यक्तया भवेत्, यतोहि तत्र अनेके अंशाः सन्ति अस्मिन् न्यायशास्त्रे अपि. एतद् वाक्यं यत् बहुवारं वयं कुर्मः तत्र अवच्छिन्न अवच्छिन्न इति, तत्र तस्य प्रयोगः कथं भवति इति. अस्मिन् विषये कोऽपि प्रश्नः अस्ति वा?
क्षम्यता महोदय, अवच्छिन्न इत्यस्य प्रयोगः कथं भवति इति पुनरेकवारं वदति वा
भगिनि? तत्र तृतीयपुटे पश्यतु, तत्र अधोभागे तत्र किम् अस्ति, अधोभागे किम् अस्ति भगिनि?
हा, घटत्वावच्छिन्न प्रतियोगिता इति लिखितम्
इति एव वदामः, किन्तु तस्य अर्थः कः नाम, तस्य दीर्घवाक्यं, तस्य वाक्यस्य एव दीर्घरूपं किम् अस्ति नाम, घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः प्रतियोगिता. किन्तु तद् दीर्घवाक्यम् अस्ति इति कृत्वा तादृशवाक्यम् एतत् किम् अस्ति, निपुणाः जाताः इति कृत्वा सर्वम् अक्रोनियम् शार्ट्कट् इति उपयुज्य वयं वदामः खलु. हा, तादृशप्रयोगः अत्रापि. अवच्छिन्न इति पदेन एतस्य चित्रस्य वर्णनं भवति. यत्र अवच्छिन्न इति पश्यामः, अत्र घटत्व तदनन्तरम् अवच्छिन्न तदनन्तरं प्रतियोगिता अस्ति खलु अस्मिन् वाक्ये. अतः तत्र अवच्छिन्न, इदानीं चतुर्थपुटे पश्यतु, तत्र अवच्छिन्न इक्वल्स् इति अस्ति खलु, तत्र डाट् 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 नाम घटत्व, घटत्वनिष्ठ तदनन्तरम् अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः तदनन्तरं प्रतियोगिता इति भवति.
इदानीम् अर्थः कथं स्वीकुर्मः? घटत्वावच्छिन्न प्रतियोगिता इति वदामः चेत् अर्थः कथं
एषः एव अर्थः नाम, तत्र घटत्वम् अवच्छेदकम् अस्ति, प्रतियोगिता अवच्छेद्यता अस्ति, अवच्छेद्या अस्ति इति.
अस्तु अस्तु महोदय.
अतः तत्र तयोः मध्ये एषः भावः अस्ति. तत्र अवच्छिन्न इति यदस्ति, केन अवच्छिन्न? घटत्वेन अवच्छिन्न. का अवच्छिन्न अभवत्? प्रतियोगिता अवच्छिन्न अभवत् इति. समीचीनं वा भगिनि जयलक्ष्मी?
अवच्छेदकः इदानीं घटत्वं भवति, अवच्छेद्यम् इति प्रतियोगिता भवति.
अवच्छेद्या इति प्रतियोगिता, सत्यम्.
अस्तु धन्यवादः.
क्षम्यतां श्रीमन्, अत्र प्रागभावः तु अवगतः, किन्तु तत्र प्रध्वंसाभावः किञ्चित् भ्रमः अस्ति वक्तुं शक्यते.
प्रध्वंसाभावः नाम तत्र घटस्य नाशः भवति खलु, तदनन्तरं तत्र घटः नास्ति खलु, घटः आसीत् किन्तु इदानीं नास्ति इति प्रध्वंस अभावः. घटः अस्ति, घटस्य निर्माणात् प्राक् प्रागभावः आसीत्, घटस्य ध्वंसानन्तरं प्रध्वंस अभावः वर्तते. अपि तत्र अत्यन्ताभावः घटः अत्र नास्ति अथवा अस्मिन् स्थले नास्ति इति अत्यन्त अभावः. अतः तत्र केवलम् इदानीं तत्र चतुर्थविध अभावः कः इति तस्य ज्ञानम् अस्माभिः अपेक्षितं नाम तत्र अन्योन्य अभावः कः इति अस्तु
क्षम्यतां महोदय अत्र घटत्व अवच्छिन्ना प्रतियोगिता इत्यत्रापि अवच्छिन्ना इत्यत्र दीर्घ आकारः भवेत् वा
अवच्छिन्न प्रतियोगिता पुनः भगिनी यतोहि तत्र अवच्छिन्न इति तत्र पुनः तत्र थ प्रत्ययेन प्राप्तं
भवति वा
विशेषणं भवति खलु तत्र नित्यस्त्रीलिङ्गम् इति नास्ति अतः ह्रस्वकारः एव
पुंवद्भावेन एव तत्रापि
सत्यं हा तत्रापि तत्रापि यतोहि समासः नियमः
इत्युक्ते अत्रापि कर्मधारे समासः एव भवति खलु घटत्वावच्छिन्ना प्रतियोगिता इति एव कर्मधारे भवति खलु अत्रापि
सत्यं हा कर्मधारे एव यतोहि तत्र प्रतियोगितायाः विशेषणम् एतत् पदम् अस्ति सत्यम्
अस्तु
घटत्वेन इति वक्तुं शक्यते वा
किं
अवच्छिन्ना प्रतियोगिता तादृशं वा
हा तादृशचिन्तनं कर्तुं शक्नुमः समीचीनं हा घटत्वेन अवच्छिन्ना प्रतियोगिता समीचीनं हा अतः तत्र घटत्वेन अवच्छिन्ना एषा प्रतियोगिता अतः तत्र घटत्वे किम् अस्ति अवच्छेदकता अस्ति प्रतियोगितायां किमस्ति अवच्छेद्यता अस्ति एतत् सर्वं भवति समीचीनं वा
महोदय तत्र समानाधिकरणस्य यः चित्रमस्ति तत्र घटः समानाधिकरणं घटाभावः इति हरितवर्णेन लिखितमस्ति तयोः समानाधिकरणं
किमस्ति न न हा क्षम्यतां तत्र समानाधिकरणं तत्र मध्ये अहं लिखितवान् यतोहि तत्र भागद्वयमस्ति तत्र वामभागे अपि तत्र समानाधिकरणम् अस्ति अपि दक्षिणभागे अपि समानाधिकरणम् अस्ति तत्र समानाधिकरणं तयोः नाम घटाभावे अनियोगिता अस्ति घटाभावत्वम् अपि अस्ति तयोः सामानाधिकरणीयं किमर्थं तत्र किमर्थं सामानाधिकरणीयं नाम यत्र अवच्छेद्यता अवच्छेदकम् अस्ति तत्र पदार्थद्वयमस्ति तयोः सामानाधिकरण्यं भवेत् इति अनियोगिता अवच्छेद्या अस्ति घटाभावत्वम् अवच्छेदकम् अस्ति तयोः समान अधिकरणम् समीचीनं वा भगिनि हा तथैव तत्र भामभागे अपि अस्तु तर्हि तत्र केवलं तत्र सर्वं तत्र नीता भगिन्या उक्तं किन्तु तत्र अन्ये विषयाः तत्र यत् तत्र दीर्घवाक्यम् एतत् अतः तत्र करपत्रमस्ति चेत् प्रायशः सरलरीत्या सर्वे अवगन्तुं शक्नुमः इति तत्र आशा आसीत् किन्तु इदानीं प्रायशः समीचीनम् इति मन्ये अतः
स्पष्टमस्ति महोदय धन्यवादः करपत्रस्य उपयोगः अभवत्
अस्तु समीचीनं भगिनी धन्यवादः अस्तु तर्हि अतः अग्रे सरामः तर्हि इदानीं तत्र एतावत् वयं किं दृष्टवन्तः तत्र तत्र अभावः तत्र यदि वयं चिन्तयामः तत्र घटः भूतले नास्ति इति चिन्तयामः तत्र घटाभावः भूतले वर्तते इति चिन्तयामः तत्र किं भवति प्रश्नः भवति अस्तु घटाभावः अस्ति भूतले केन सम्बन्धेन अस्ति इति तत्र उत्तरं किम् आसीत् तत्र स्वरूपसम्बन्धेन अस्ति इति नूतननामकरणं तावदेव तत्र स्वरूपसम्बन्धेन अभावः तत्र पदार्थे अस्ति इति तत्र तस्य नामकरणं नूतनसम्बन्धः स्वरूपसम्बन्धः इति अपि तत्र केवलं प्रायशः तत्र एतद् एकवारं यदि अपि तत्र तादात्म्यसम्बन्धः इति तत्र अपि उक्तं तस्य विवरणम् अग्रे भवति किन्तु अत्र प्रायशः तत्र पेज् 28 मध्ये अन्तिम परिच्छेद आरभ्य यदि पठामः सम्यक् भवति इति मन्ये. अतः तत्र चन्द्रप्रभा भगिनी पठितुम् इच्छति वा तत्र पेज् 28 अन्तिमपरिच्छेदम्? अस्तु
महोदय.
नमो
नमः महोदय.
नमस्कार.
इदानीम् अहं अग्रे पठामि महोदय.
अस्तु अस्तु, चिन्ता मास्तु भगिनि. अस्तु अस्तु, चिन्ता मास्तु.
धन्यवादः.
तर्हि तत्र धन्यवादः भगिनि. धनश्री भगिनी भवती पठितुम् इच्छति वा तत्र पेज् 28 अभावः इति परिच्छेदम्?
अन्तिमं परिच्छेदम् अभावः भूतले स्वरूपसम्बन्धेन भवति. प्रतियोगिता घटे स्वरूपसम्बन्धेन भवति. पूर्वोक्त अवच्छेदकता अपि घटत्वे स्वरूपसम्बन्धेन दैशिकविशेषणतया भवति.
वदतु भगिनि, वदतु.
एवं घटादिपदार्थानां स्वस्मिन् एव यः सम्बन्धः सः तादात्म्यसम्बन्धः इत्युच्यते. अत्र चित्र अस्ति घटत्वाभावः दैशिकविशेषणतास्वरूपं भूतले अस्ति.
तत्र वयं साधारणतया तत्र केवलं तत्र दैशिकविशेषणता अपि कालिकविशेषणता एतत् सर्वम् अग्रे आयाति, किन्तु साधारणव्यवहारः अस्ति तत्र अभावः स्वरूपसम्बन्धेन तिष्ठति इति, तत्र आधारे तिष्ठति. अतः तत्र प्रथमभागस्य विवरणं करोतु. तत्र घटत्वाभावः
स्वरूपसम्बन्धेन भूतले तिष्ठति,
हा इति अस्ति. तत्र एकः प्रश्नः अस्ति, तत्र घटत्वाभावः तत्र भूतले तिष्ठति, तत्र सर्वदा तिष्ठति वा अथवा केवलम् इदानीम् अस्ति किन्तु अग्रे न भवति इति किं चिन्तनं तत्र?
सर्वदा तु
तत्र
कः तत्र घटमानयितुं स्थापयति तदा घटाभावः न भवेत्
न, किन्तु तत्र उपरि घटाभावः नास्ति, घटत्वाभावः. हा सर्वदा एव अस्ति, यतोहि घटत्वाभावः घटत्वं कुत्र वर्तते? केवलं घटेषु वर्तते. अतः घटत्वाभावः नित्यं तत्र भूतले वर्तते, तत्र प्रश्नः एव नास्ति, नित्यं वर्तते. अतः तत्र नित्य इति सम्बन्धः तु तत्र समवायसम्बन्धः अपि नित्यः अस्ति खलु, किन्तु एषः अपि नित्यसम्बन्धः अस्ति किन्तु समवायः नास्ति, यतोहि समवायसम्बन्धः कयोः मध्ये इति पूर्णमेव तस्य विवरणं कृतम्. एतत्तु भिन्नमस्ति, अतः तत्र नूतनसम्बन्धस्य अपेक्षा अस्ति अत्र. अतः तत्र नामकरणमस्ति स्वरूपसम्बन्धः. एषः स्वरूपसम्बन्धः अपि नित्यसम्बन्धः. अपि द्वितीयभागस्य प्रतियोगिता,
प्रतियोगिता स्वरूपसम्बन्धेन घटे तिष्ठति,
तिष्ठति यतोहि घटः प्रतियोगी.
द्वितीय अवच्छेदकता स्वरूपसम्बन्धेन घटत्वे तिष्ठति,
हा घटत्वम् अवच्छेदकं, तत्र अवच्छेदकता अस्ति, तत्र अवच्छेदकता अपि तत्र स्वरूपसम्बन्धेन घटत्वे तिष्ठति इति. इदानीं तत्र नूतनसम्बन्धः स्वरूपसम्बन्धः, अपि अन्यसम्बन्धः अपि तस्य आवश्यकता अस्ति, तस्य नामकरणमस्ति तादात्म्यसम्बन्धः इति. तत्र तद्वाक्यं पुनः पठतु भगिनि. एवं
एवं घटादिपदार्थानां स्वस्मिन् एव यः सम्बन्धः सः तादात्म्यसम्बन्धः इति उच्यते.
हा तत्र
स्वस्मिन् एव,
हा नाम घटः स्वीकुर्मः, घटः इति पदार्थं स्वीकुर्मः, घटः स्वस्मिन् तिष्ठति, उपरि अपि घटं घटः, अधोभागे अपि घटः, सम्बन्धः कः इत्युक्ते प्रश्ने सति तादात्म्यसम्बन्धः नाम अभेदः अस्ति तत्र भेदः एव नास्ति सः एव घटः स्वस्मिन्नेव अस्ति अत्र किन्तु तत्र एकः शरः अपेक्षितः अस्ति अग्रे गत्वा तत्र इदानीं कारणं कार्यम् इति भवति तत्र एकः शरः अपेक्षितः अस्ति सम्बन्धः शरः अतः तत्र तादात्म्यसम्बन्धः इति नामकरणम् अस्ति तस्य तादात्म्यसम्बन्धस्य कः प्रयोगः इति अग्रे अद्य अथवा अग्रिमे वर्गे ज्ञास्यामः अस्तु समीचीनं भगिनि धन्यवादः अस्तु
महोदय इत्युक्ते तादात्म्यसम्बन्धः स्वरूपसम्बन्धः च भिन्नः अस्ति इति
भिन्नः 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 सत्यं भगिनि तादात्म्यसम्बन्धः सर्वदा उपरि यः पदार्थः सः एव पदार्थः अधोभागे अपि घटः स्वस्मिन् तिष्ठति केन सम्बन्धेन तादात्म्यसम्बन्धेन इति घटत्वाभावः घटत्वाभावे तादात्म्यसम्बन्धेन तिष्ठति इति अतः सर्वे पदार्थाः ये सन्ति ते स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति प्रत्येकपदार्थः समीचीनं भगिनि अस्तु इदानीम् अग्रे सरामः तर्हि तत्र उपेन्द्रमहोदय अग्रे पठितुम् इच्छति वा उपेन्द्रमहोदय
नमस्ते आचार्यजी
नमस्कारः भगिनि
आचार्यजी अग्रे इदम् अस्य कारणम् इति वक्तुं निकषाः
हा इदम् अस्य कारणमिति वक्तुं निकषाः
निकषाः निकषाः तदा हि कार्यकारणभाव विचारे उत्पत्स्यमानं यत् कार्यं तत् प्रति किं कारणं भवितुमर्हति इति विचारे आदौ तेन कार्याधिकरणे भाव्यम् इति चिन्तितं यदि हस्तमलनिवारणं जलेन कर्तुमिच्छति चेत् यद् हस्ते मलः अस्ति यत्र मलनिवारणरूपं कार्यं कर्तव्यं तद् हस्ते एव जलसंयोगः आवश्यकः न तु अन्यस्मिन् हस्ते भूतलादौ वा अतः कार्यम् इति यत् वयं मन्यामहे तस्य अधिकरणे कारणमिति यत् निर्धारणीयं तेन स्थातव्यम्
इति इदानीं तत्र इदानीं तत्र कारणम् इति वक्तुं निकषाः निकषः अथवा निकषाः नाम किम् इति वदति वा किञ्चित्
आचार्यजी निकषाः दिस् न्यू वर्ड् फर् मी आचार्य
अस्तु अन्य कोऽपि वदति वा तत्र निकषः अथवा नाम किं
क्रैटेरिया वा क्रैटेरिया
हा तत्र हा येन येन योग्य योग्य हा योग्य अंशः योग्याः अंशाः यैः वैः यैः वयम् एतदेव कारणम् इति वक्तुं शक्नुमः हा तत्र क्रैटीरियन् इति हा तत्र यैः वयम् एतदेव कारणम् इति निर्णयं कर्तुं शक्नुमः एतत् कारणं नास्ति एतद् अन्यत् एव कारणम् इति तादृशनिर्धारणं कर्तुं ये अंशाः सहायकाः सन्ति ते निकषाः इति वदामः अत्र एकः एव निकषः इति नास्ति निकषाः इति बहुवचने दत्तमस्ति अतः सावधानम् अतः तत्र अपि एतदेव विज्ञानस्य अपि खलु तत्र कास् एण्ड् एफेक्ट् किमपि भवति तस्य कारणं किम् इति तस्मिन्नेव अन्वेषणं भवति खलु अतः किमपि अभवत् तस्य कारणं किं महत्त्वपूर्णप्रश्नः अत्र नैयायिकानां विचारः कः इति पश्यामः अस्तु इदानीं महोदय इदानीं पङ्क्तिशः तत्र पठतु तत्र प्रथमवाक्यमपि प्रायशः प्रथमवाक्यं भागं भागं पठित्वा किञ्चित् वदतु महोदय.
प्रयत्नं करोमि आचार्य.
चिन्ता मास्तु,
साहाय्यम् आवश्यकं.
साहाय्यं सर्वे वयं सर्वे मिलित्वा पठामः, अतः चिन्ता मास्तु.
तथा हि कार्यकारणभावविचारे उत्पत्स्यमानं यत् कार्यं तत् प्रति किं कारणं भवितुमर्हति इति विचारे आदौ तेन कार्याधिकरणे भाव्यम् इति चिन्तनम्
इति चिन्तितम्
अत्र एत इति चिन्तितम् चिन्तितम् विचारं चिन्तितम् अत्र विचारं करणीयं कार्यकारणभावविचारं
किमपि
कार्यकारण
कार्यं नाम किं
तस्य
कारणम् इति तस्य तत् कास् इति कार्यम् अथवा फलम्. इदानीं तत्र उत्पत्स्यमानम् इति तत्र उत्पत्स्यमानम् इति रूपं
यत् कार्यम् उत्पद्यति
तत्र उत्पत्स्यमानम् इति
कारणं
इति तत्र
कार्यं प्रति कार्यं प्रति कारणं किं भवितुमर्हति इति विचारः आदौ करणीयं.
अस्माकं मूलविचारः किमपि कार्यम् अभवत् तस्य कारणं किम् इति अस्माकं विषयः, अतः तत्र किं कारणमिति कथं निर्णेतुं शक्नुमः इति प्रश्नः तत्र अस्तु. इदानीं समीचीनं महोदय, इदानीं तत्र अन्य कोऽपि पठतु. धन्यवादः महोदय. अस्तु, तत्र
तत्र भाव्यं कः अर्थः?
किं भगिनि?
भाव्यं कार्याधिकारणे भाव्यं.
हा, भाव्यं भाव्यमिति पदस्य कः अर्थः वा?
भावः
वा? या तत्र आगच्छामः, किन्तु तस्मात् प्राक् भाव्यमिति तस्य पदस्य अपि किञ्चित् विवरणं कुर्मः. किन्तु तस्मात् प्राक् तत्र प्रथमतया उत्पत्स्यमानं यत् कार्यं तत्र जयलक्ष्मी भगिनी तत्र वदति वा किञ्चित् तत्र उत्पत्स्यमानम् इति तत्र रूपं
कीदृशं शानश् प्रत्यय भवति, कर्मणि अपि भवति इति.
सत्यं सत्यं, तत्र कर्मणि अपि तत्र मूलधातु किमस्ति?
उत् इति उपसर्गः. पत् इति
उत्पद्यते, तत्तु लट्लकारे. ल्यप् नास्ति, एतत्
भविष्यति वा? लृट् भविष्यत्.
हा, समीचीनम्. उत्पद्यते किन्तु दिवादिगणे अस्ति इति कृत्वा तत्र कर्मणि रूपमपि समानमेव भवति. उत्पद्यते इति तस्य चानज् नाम भविष्यं, भविष्यते, भविष्यति इति. तत्र यत् कार्यं भविष्यति तत्र तत् प्रति, तत् कार्यं प्रति किं कारणं भवितुम् अर्हति इति विचारे, इति एव अस्माकं मूलविचारः. आदौ किं करणीयम्? आदौ अस्माकं चिन्तनं किं भवेत्? जयलक्ष्मी भगिनी, इदानीम् अग्रिमभागः तत्र प्रथमवाक्ये आदौ
कार्यकारणभावविचारे उत्पद्यमानं यत् कार्यं तत् प्रति किं कारणं भवितुम् अर्हति इति विचारे आदौ तेन कार्याधिकरणे भाव्यम् इति चिन्तितम्.
हा, तत्र तेन नाम किं? तेन इति तृतीया मध्ये अस्ति. तेन इति किमस्ति? तेन
उत्पद्यमानेन
न, तत्र किं कारणं भवितुम् अर्हति इति विचारे आदौ तेन अत्र कारणेन उत्पत्स्यमानं तु कार्यमस्ति, कार्यं भविष्यति, किन्तु तस्य कार्यस्य कारणं यदस्ति तद् कार्यं कार्येण क्षम्यतां
कारणेन
कार्याधिकरणे भाव्यम् इति चिन्तितं. नाम भाव्यम् इति तत्र वयं गतवर्गे अपि उक्तवन्तः, तत्र भाव्यं नाम तत्र भवितव्यम् इति तस्यैव अन्यत् रूपं तस्मिन् अर्थे एव अस्ति खलु यत् तत्र प्रत्ययः किम् आसीत्
प्रत्ययः
हा तत्र
भवितुं योग्यम् इति भवति
हा सत्यं सत्यं भगिनि हा तत्र भवितव्यं भवनीयं तत्र कर्तव्यं करणीयं कार्यम् इति तादृशरूपम् अत्र अस्ति अतः तत्र किं भवति तत्र भवितव्यं किं भवितव्यं कारणेन कार्यादिकरणे भवितव्यम् इति चिन्तितम् इति चिन्तनं भवेत् तदेव तत्र कर्तृरूपे वदामः चेत् किं भवति वाक्यं कारणेन कार्यादिकरणे भवितव्यम् इति हा भवतु कारणं कार्यादिकरणे भवतु अथवा भवेत्
भवेत्
हा इति चिन्तनम् इति चिन्तनं नाम कार्यं किमपि अभवत् तस्मिन् स्थले एव तस्मिन् अधिकरणे एव कारणमपि भवेत् अन्यत्र किमपि कुत्रापि कारणं न भवति अत्र एव कारणं भवेत् इति चिन्तनम् अस्ति अतः तत्र इदानीं तत्र धन्यवादः भगिनि इदानीम् अग्रे तत्र सावित्री भगिनी अग्रे पठति अग्रे किञ्चित् विवृणोति वा अग्रे
यदि हस्तमलनिवारणं जलेन कर्तुमिच्छति चेत् यत् हस्ते मलः अस्ति यत्र मलनिवारणरूपं कार्यं कर्तव्यं तत् हस्ते एव जलसंयोगः आवश्यकः न तु अन्यस्मिन् हस्ते भूतलादौ वा
हा इति तावत्पर्यन्तम्
आम् इत्युक्ते अत्र हस्तस्य तत्र मलिनमस्ति तस्य निवारणं करणीयं तत् कार्यं
हा तदेव कार्यमस्ति हस्तमलनिवारणं तदेव कार्यं
सत्य हस्तमलनिवारणं कार्यं तत् केन भवति जलेन भवति जलेन हस्तमलेन मलनिवारणकार्यं कर्तुमिच्छामः चेत् यस्मिन् हस्ते मलिनमस्ति यस्य हस्तस्य मलिनमस्ति तस्य हस्तस्य एव क्षालनं करणीयम् इत्युक्ते तस्मात् हस्तादेव मलनिवारणं करणीयम् ओके न तु अन्यहस्तं वा ओके कार्यं कर्तव्यं तस्य हस्ते एव जलसंयोगः अतः जलसंयोगः तस्य हस्तस्य एव भवति तेन तस्य हस्तस्य जलस्य यदि संयोगः भवति कार्यं यदि भवति तदा हस्तस्य मलनिवारणं कार्यं भवति
हा इदानीं समीचीनं भगिनि हा इदानीं तत्र जलसंयोगः तत्र किं तस्मिन्नेव हस्ते भवेत् यत्र मलिनम् अस्ति अतः तत्र अस्माकं कार्यं किम् अत्र कार्यमस्ति मलनिवारणं किन्तु कारणं किम् अस्ति कारणं किं दत्तमस्ति अत्र किं स्वीकृतं कारणं
मलनिवारणं तत्र करणीयमस्ति कार्यमस्ति
तत् कार्यमस्ति कारणं किं चिन्तितम् अत्र
जलेन कुर्मः
हा जलेन किन्तु जलसंयोगः कारणं जलसंयोगः कारणं यतोहि जलसंयोगात् एव मलनिवारणं भवति अतः जलसंयोगः कारणं मलनिवारणं कार्यं यत्र मलः अस्ति यस्मिन् हस्ते मलः अस्ति तस्मिन् हस्ते एव जलसंयोगः अपि भवेत् अतः कार्यादिकरणमस्ति हस्तः अस्ति कार्यादिकरणं हस्तः तस्मिन् हस्ते संयोगः अपि भवेत् अतः इदानीं तत्र अन्तिमवाक्यम् अस्मिन् परिच्छेदे
पठतु भगिनि अतः पठामि वा अतः कार्यम् इति यत् वयं मन्यामहे तस्य अधिकरणे कारणम् इति यत् निर्धारणीयं तेन स्थातव्यम् इत्युक्ते अत्र अतः अत्र कार्यम् इति यत् वयं वदामः इत्युक्ते कार्यं मलनिवारणमस्ति तत्र कारणं जलसंयोगः अस्ति कार्यं यत् वयं मन्यामहे तस्य अधिकरणे कारणम् इति इत्युक्ते तस्य अधिकरणं तत्र कार्य तत्र कारणम् इत्युक्ते कार्यम्
अधिकरणं कारणं नास्ति किन्तु तस्य अधिकरणम् अधिकरणे कारणमपि भवेत् तस्मिन्नेव अधिकरणे अत्र कार्यम् अस्माकं कार्यमस्ति मलनिवारणं मलनिवारणं मलं मलः कुत्र अस्ति हस्ते अस्ति हस्तः अधिकरणं कार्यस्य अधिकरणं हस्तः तस्मिन् हस्ते एव जलसंयोगः भवेत् खलु संयोगः भवति चेत् किमपि प्रयोजनं नास्ति तस्मिन्नेव हस्ते संयोगः भवेत् अतः कारणमिति यत् चिन्तयामः तत्र किमपि कार्यम् अस्ति तत्र कार्यम् इति विचारे वयं किं प्रथमतया कुर्मः अधिकरणं दृष्ट्वा तत्र एव कारणं किम् इति अन्वेषणं कुर्मः अन्यत्र गत्वा तत्र कारणं किम् इति न पश्यामः अतः कारणं कुत्र भवेत् कार्यस्य अधिकरणे एव भवेत्
इति निर्धारणीयं तेन स्थातव्यं
हा नाम यत् कारणम् निर्धारणीयम् अस्ति अस्माकं निर्धारणम् एतदेव कारणम् इति निर्धारणं करणीयमस्ति तत् कारणं यत् यस्य निर्धारः एतावत् न कृतं किन्तु तत् कारणम् इति यत् चिन्तयामः तत् कारणम् अधिकरणे स्थातव्यम् अधिकरणे तत् कारणं स्थातव्यं कारणेन स्थातव्यम् अधिकरणे अधिकरणे नास्ति चेत् तत्र प्रायशः न तत् कारणं न भवितुम् अर्हति
किन्तु श्रीमन् भीतिः भवति वयं व्यवहारे एतावत् चिन्तनं कुत्र कुर्मः कदाचित् न्यायप्रवेशने भयं भवति एतत्
एतद् विषयः खलु तत्र कास् एण्ड् एफेक्ट् इति तत्र हा अग्रे अपि उदाहरणानि पश्यामः हा अस्तु
आचार्य तत् किञ्चित् पारलेल् इस् लैक् सत्कार्यवाद कारणं कार्ये किं कार्यं कारणे कारणं कार्ये अस्ति
हा एतत्तु भिन्नम् अस्ति भगिनि एतत् कार्यम् अपि कारणं तयोः अधिकरणं समानं भवेत् तत्र कारणं कारणे कार्ये अस्ति अथवा कार्यं कारणे अस्ति इति न कारणम् अपि कार्यं समान अधिकरणे भवेत् एकस्मिन्नेव अधिकरणे कार्यमपि भवेत् कारणमपि भवेत् इति प्रथमनिकषः समीचीनं
वा
अस्तु हा तर्हि अग्रे भवती एव तत्र अग्रे पठितुम् इच्छति वा भगिनि अना भगिनि
अस्तु इतः च चिन्त्यं घटनिर्माणस्थले तं निर्माणरीतिं ज्ञातुं कश्चित् नागरिकः गच्छति सः अपि घटः उत्पत्तिः यत्र भवति तत्र भूतले वर्तते एव न तु सः घातस्य कारणम् इति व्यवह्रियते अतः कार्याधिकारणे विद्यते इति एतत् न पर्याप्तम्
तावत्पर्यन्तं हा इतश्च चिन्त्यं नाम इतश्च
इदानीं चिन्तयामः
न इदानीमपि अग्रे चिन्तनीयम् अस्ति नाम एतावत् पर्याप्तं नास्ति नाम तत्र केवलं कारणं कार्यस्य अधिकरणे अस्ति इति कृत्वा तत्र कार्यस्य अधिकरणे अनेके पदार्थाः स्युः सर्वाणि कारणानि भवन्ति वा इति न जानीमः खलु अतः तत्र एतेन न पर्याप्तम् अग्रे गन्तव्यम् अस्ति अतः इतश्च चिन्त्यम् इतः अग्रे अपि चिन्तनीयम् अस्ति पर्याप्तं नास्ति इति प्रथमभागः अग्रे घटनिर्माणस्थले
घटनिर्माणस्थले तान् निर्माणरीतिं ज्ञातुं कश्चित् नागरिकः गच्छति.
तत्र वयं चिन्तयामः ग्रामे एव तत्र घटस्य निर्माणं भवति, नगरे न भवति. अतः तत्र ग्रामे किं कुलालः अस्ति, पाटर् इति अस्ति, तत्र दण्डः अस्ति, चक्रः अस्ति, अपि हा एतत् सर्वं स्वीकृत्य सः घटस्य कपालः अस्ति, एतत् सर्वं स्वीकृत्य सः घटस्य निर्माणं करोति. तत्र कथं निर्माणं भवति इति ज्ञातुं कश्चित् नागरिकः तत्र गच्छति. इदानीं अत्र
सः अपि घटस्य उत्पत्तिः यत्र भवति तत्र भूतले वर्तते एव.
हा, यत्र घटस्य निर्माणं भवति तत्र इदानीं नागरिकः अपि अस्ति, तस्मिन्नेव स्थले सः अपि अस्ति. इदानीं कार्यम् अस्ति तत्र घटः इति कार्यं, तदेव एफेक्ट्, फलं, घट एव कार्यम्. इदानीं किं तत्र नागरिकः घटस्य कारणमिति वक्तुं शक्नुमः वा?
न,
एतदेव अग्रिमवाक्यस्य न तु
सः घटस्य कारणमिति व्यवह्रियते.
हा, कोऽपि वदति खलु तत्र, अस्तु एषः नागरिकः एव कारणम् इति. यतोहि तत्र यदि सः नागरिकः आगतवान् न आगतवान्, कुलालः तु घटस्य निर्माणं करोति एव खलु. यदि सः आगच्छति तथापि घटस्य निर्माणं करोति, यदि नागरिकः न आगतवान् तथापि सः निर्माणं करोति. अतः घटनिर्माणं घटं प्रति नागरिकः न कारणं. किन्तु किम् अत्र अस्ति अग्रिमवाक्यम्? अतः
कार्याधिकारणे विद्यते इति एतत् न पर्याप्तम्.
नाम कारणस्य निकषः नाम किं कारणं भवति इति चिन्तने, अस्तु कारणं यत् किं कारणं किमस्ति, यद् कार्याधिकरणे अस्ति तदेव कारणम् इति यदि वदामः तत् पर्याप्तं भवति वा? तेन पर्याप्तं भवति वा? न, यतोहि किमर्थम् अतः इति उक्तम्?
अतः न पर्याप्तम् इति अतः उक्तम्.
हा, यतः नागरिकः तस्मिन् स्थले अस्ति, घटः यत्र अस्ति तस्मिन् स्थले एव अस्ति, सः अपि तत्र तस्मिन्नेव अधिकरणे अस्ति, किन्तु सः कारणं नास्ति. अतः कार्याधिकरणे सः विद्यते इति कृत्वा सः कारणं नास्ति, न अभवत्, न कोऽपि वदति नागरिकः कारणम् इति. अतः प्रथमनिकषः यत् अस्ति आसीत् अधिकरणे, कार्याधिकरणे कारणं भवेत् इति, तेन एव पर्याप्तं न भवति, अन्यः निकषः अपि आवश्यकः अस्ति इति भवति. अस्तु अस्तु, धन्यवादः भगिनी. अग्रे अन्य कोऽपि तत्र विमला भगिनी अग्रे पठितुम् इच्छति वा?
आम् आं महोदय. किन्तु यत् कारणमिति निर्धारणीयं तेन कार्याधिकरणे सर्वदा भाव्यम्. नागरिकस्तु यदा ज्ञातुमिच्छति तदा एव घटाधिकरणे भवति, नान्यदा. दण्डादयस्तु सर्वदा एव भवन्ति इति तानि घटकारणानि. उक्तं यत् यदि नागरिकघटस्य कारणम् इति अस्माभिः निर्धारणं करणीयं तदा तस्य उपस्थितिः सर्वदा भवेत् तत्र. परन्तु नागरिकः यदा ज्ञातुं घटनिर्माणं ज्ञातुम् इच्छति तदा तत्र आगच्छति, सर्वदा तत्र न भवति, तत्र तस्य उपस्थितिः सर्वदा तत्र न अस्ति. अन्यपदार्थाः, सामग्र्यः, यत् दण्डचक्रमित्यादयः सर्वदा एव तत्र भवन्ति इति तानि घटकारणानि इति उक्तम्
हा इति एतत् स्वीकर्तुं शक्नुमः खलु हा तत्र सर्वदा स्थातव्यं नाम यतोहि तत्र किमर्थं सर्वदा इति इदानीं वयं स्थापितवन्तः यतोहि सर्वदा नास्ति चेत् किं भवति नागरिकः अपि कारणं भवति खलु तत्र घटस्य कारणं नागरिकः अपि भवितुमर्हति किन्तु वयं पश्यामः अस्तु नागरिकः सर्वदा न भवति अतः इदानीं वयं तत् स्थापयामः तत्र कार्याधिकरणे कारणं सर्वदा भवेत् इति भवेत् इति हा अस्तु एतावत् कोऽपि प्रश्नः वा अस्तु विमलभगिनी अग्रे भवती एव तत्र अग्रे अपि किञ्चित् पठति वा
आं महोदय इतोपि चिन्त्यं घटः
नागरिकः अपि कारणम् इति वक्तुं शक्नुमः अन्यतमः इति भवितुम् अर्हति
नाम तत्र नागरिकः तत्र केवलं तत्र वदतु भगिनि किञ्चित् वदतु तत्र
तदेव प्रस्तावनम् इति इद लौकिककार्येषु यदि वयं चिन्तयामः कदाचित् ओके सः आगतवान् अतः एतत् कार्यम् अभवत् इति यदि तदा वदामः
अस्तु तदपि तत्र नाम तत्र प्रायशः अस्तु तत्र भवती वक्तुम् इच्छति तत्र प्रायशः तत्र नागरिकः तत्र इष्टवान् तत्र एतद् निर्माणं कथं भवेत् इति ज्ञातुम् इष्टवान् तत्र इच्छा अस्ति तस्य अथवा क्रेतुम् इच्छा अस्ति किमपि इच्छा एतादृश वयम् अग्रे पश्यामः तत्र साधारणकारणम् इति वदामः यत्किमपि कार्यमस्ति तं प्रति इच्छा सर्वदा भवेत् खलु तत् साधारणम् तत् साधारणकारणम् इति वदामः यत्र इदानीं यत् कारणं यस्य विषये वयं चर्चयामः तद् असाधारणकारणम् इति चिन्तयितुं शक्नुमः नाम इच्छा एतत् सर्वं तत्र अग्रे पश्यामः तत्र भगवतः इच्छा एतत् सर्वमपि आगच्छति मनुष्याणाम् इच्छा अपि एतत् सर्वम् आगच्छति किन्तु एतत् निर्माण अनुकूलानि वस्तूनि यानि सन्ति हा तत्र तादृश चिन्तनम् इदानीम् अस्माकम् अस्तु समीचीनम् अस्तु अग्रे विमला भगिनी
अस्तु इतोपि चिन्त्यं घटः कार्यं स्वस्य अधिकरणे कपाले वर्तते एवं सर्वदा वर्तते अतः घटोपि घटस्य कारणं स्यात् अतः यस्मिन् क्षणे कार्योपत्तिः तत्पूर्वक्षणे कारणेन भाव्यमिति चिन्त्यते घटः यद्यपि वर्तते स्वोत्पत्युत्तरं सर्वदा वर्तते परन्तु न स्वोत्पत्तेः पूर्वं वर्तते अतः न घटस्य स्वं प्रति कारणत्वापत्तिः इतोपि चिन्त्यम् अस्माभिः इतोपि चिन्तनं करणीयं यतोहि यत् यः नागरिकः तत्र आसीत् सः कारणं न किं कारणमिति घटः कार्यमस्ति घटस्य अधिकरणं कपालमस्ति एवं सर्वदा वर्तते अतः घटोपि घटस्य कारणमिति चिन्तयितुं वयं शक्नुमः परन्तु यस्मिन् क्षणे घटस्य उत्पत्तिः भवति तत्पूर्वक्षणे कारणेन तत्र अस्तित्वम् अपेक्षते कारणस्य अपेक्षा अपेक्षते घटः यद्यपि वर्तते स्वस्य उत्पत्ति उत्तरं यदा घटः भवति तस्य पूर्वक्षणे तत् न वर्तते उत्पत्तिनन्तरमेव घटः वर्तते अतः घटः घटस्य प्रति कारणं न इति अस्य अर्थः
नाम तत्र यदि वयं केवलं वदामः सर्वदा भवेत् कारणं यत् कारणम् इति वक्तुम् इच्छामः किमपि कार्यमस्ति तस्य कारणं किम् इति चिन्तनं तत्र एतत् कारणं भवेत् इति चिन्तयामः तत्र वयं किं कः प्रश्नः भवति तत्र वयं पृच्छामः कारणं सर्वदा कार्यस्य अधिकरणे अस्ति वा इति अत्र किम् उक्तम् तत्र अस्तु तत्र घटः कपाले वर्तते यद्यपि घटस्य निर्माणं न अभवत् किन्तु तत्र घटः सर्वदा तत्र स्वस्य तत्र अवयवाः सन्ति कपालः तत्र अतः तत्र घटः कपालेषु वर्तते इति चिन्तनेन तत्र घटः वर्तते न वर्तते किन्तु घटः सर्वदा कपाले वर्तते इति चिन्तनेन वयं सर्वदा इति सम्यक् नास्ति किन्तु पूर्वक्षणे घटनिर्माणस्य पूर्वक्षणे भवेत् इति इदानीं तत्र नूतननिकषः भवति तत्र प्रायशः तत्र एतत् तत्र अत्र किञ्चित् क्लेशः भवेत् यतोहि तत्र घटः नास्ति इति वदामः घटस्य उत्पत्तिः भवति इति वदामः किन्तु घटः सर्वदा भवति इति अपि वदामः तत्र मम मनसि अस्मिन् परिच्छेदे किञ्चित् क्लेशः वर्तते किन्तु तत्र सारांशः तु सुलभः अस्ति नाम कार्यस्य उत्पत्तिः यस्मिन् क्षणे भवति तस्य पूर्वस्मिन् क्षणे कारणं कार्यादिकरणे भवेत् इति तत्र नूतननिकषः अस्तु धन्यवादः भगिनि समीचीनं
धन्यवादः महोदय
अस्तु अग्रे तत्र शुभदा भगिनी अग्रे पठितुम् इच्छति वा
आचार्यजी एकः प्रश्नः अस्ति आचार्यजी अत्र अतः घटौ अपि घटस्य कारणं स्यात्
इति प्रश्नः यतोहि तत्र किं चिन्तनं घटः कपाले वर्तते कपालः एव तत्र अधिकरणं कपालः एव तत्र अस्माकं चिन्तनं घटोत्पत्तेः तत्र कपालः एव अधिकरणं कपालः घटस्य अधिकरणं घटः कपाले वर्तते तत्र घटोत्पत्तेः प्राक् अपि तत्र किं तत्र सूक्ष्मरूपेण वर्तते इति चिन्तयितुं शक्नुमः अतः यदि केवलं सर्वदा वर्तते इति वदामः किं भवति घटः अपि तं प्रति कारणं भवति स्वस्वं प्रति कारणं भवति किन्तु तत् सम्यक् नास्ति खलु
आचार्यजी यदि घटः इति मन्ये कार्यम् अभवत् आचार्यजी
इति अतः एव अहम् उक्तवान् क्लेशः अस्ति तत्र अतः केवलं निकषः कः इति स्वीकुर्मः नाम कार्यमदस्ति तस्य उत्पत्तिः यस्मिन् क्षणे भवति तस्मात् प्राक् नाम तस्य पूर्वस्मिन् क्षणे कारणमपि तस्मिन्नेव अधिकरणे भवेत् तत्र इदानीम् अद्य किमपि अभवत् अद्य घटनिर्माणम् अभवत् ह्यः किमपि तत्र घटस्य अधिकरणे अस्ति इति कृत्वा तत् कारणं नास्ति घट उत्पत्तिः प्राक् तस्मिन् क्षणे कारणम् अधिकरणे भवेत् इति निकषः भवति सः तु समीचीनः निकषः समीचीनं वा महोदय
धन्यवादः
अस्तु शुभदा भगिनी अग्रे पठितुम् इच्छति वा न श्रूयते भगिनि भगिनी न श्रूयते अस्तु क्षम्यतां भगिनि हा इदानीं श्रूयते हा इदानीं समीचीनं हा
अस्तु क्षम्यतां महोदय
हा चिन्ता मास्तु हा
आम् ये तु घटकारणीभूताः दण्डचक्रादयः ते घटाधिकरणे कपाले वर्तन्ते सर्वदा वर्तन्ते एवं घटोत्पत्तेः पूर्वक्षणे वर्तन्ते इति दण्डः घटकारणं चक्रं घटकारणम् इति व्यवहारः तथा च किञ्चन कस्यचित् कारणम् इति निर्धारयितुं तेन कार्याधिकरणे स्थातव्यं तेन कार्याधिकरणे सर्वदा स्थातव्यं तेन कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् इति भवति क्रमः विचारस्य ये तु घटकारणीभूताः दण्डचक्रादयः घटस्य कारणी घटस्य निर्माणस्य कृते ये कारणीभूताः अवयवाः सन्ति ते तु
पदार्थः पदार्थः अवयवः अवयवः नाम तत्र साक्षात् यद् भागः भवति किन्तु
भागः भवति
दण्डः चक्रः न खलु
घटस्य निर्माणस्य कृते ये कारणानि सन्ति ये पदार्थाः कारणाः सन्ति दण्डः चक्रः च
खलु साधारणचिन्तनमस्ति अस्तु दण्डेन विना तत्र घटः न भवति खलु तत्र कुलालेन विना घटः न भवति दण्डेन विना घटः न भवति इति अतः तत्र दण्डः चक्रः एतत् सर्वं कारणम् इति चिन्तनम् अस्ति अस्माकं
कारणमस्ति ते घटाधिकरणे यस्य यत्र घटस्य निर्माणं भवति तत् तस्मिन् अधिकरणे कपाले ते वर्तन्ते कारणाः वर्तन्ते सर्वदा वर्तन्ते तत्र कालस्य किमपि निषेधः अथवा अवरोधः नास्ति
इदानीं वर्तन्ते एकस्मिन् समये वर्तन्ते अन्यत्र गच्छन्ति इति प्रायशः भवेयुः किन्तु तत्र निर्माणसमये तस्मात्
प्राक्
भवेयुः
एवं घटोत्पत्तेः पूर्वक्षणे वर्तन्ते इति घटस्य उत्पत्तेः पूर्वक्षणे यत् यस्मिन् क्षणे घटः निर्माणं भवति तस्मात् पूर्वक्षणे ते कारणाः तत्र अधिकरणे
सन्ति नाम दण्डः अस्ति चक्रम् अस्ति कुलालः अस्ति सर्वम् अस्ति
अस्ति अतः ते कारणम् इति व्यवहारः तथा च किञ्चन कस्यचित् कारणं निर्धारयितुम् अतः त्रीणि निकषाः तत्र
त्रयम् अथवा त्रयः निकषाः
त्रयः निकषाः तत्र दत्ताः सन्ति दत्ताः सन्ति प्रथमं तु तेन इत्युक्ते तेन कारणेन कार्याधिकरणे स्थातव्यम् कार्याधिकरणे कार्यस्य यत्र भवनम् अस्ति तत्र ते तत् कारणं तत्र भवितव्यं तत्र स्थातव्यम्
कारणं तत्र भवेत्
कारणं तत्र भवेत् तेन कारणेन कार्याधिकरणे सर्वदा स्थातव्यं सर्वदा तत्र भवितव्यं तत्र स्थातव्यं कारणेन अपि च तेन कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यं सर्वदा तु स्थातव्यमेव परन्तु निर्माणक्षणस्य क्षणात् प्राक् क्षणे तत्र तत् कारणं
कारणेन स्थातव्यं कारणं भवेत् कारणं तत्र अधिकरणे भवेत् तत्र सर्वदा इति स्थाने प्रायशः तत्र पूर्वम् उत्पत्तेः पूर्वं सर्वदा इति प्रायशः सम्यक् भवति यतोहि तत्र निर्माणानन्तरं तत्र भवेत् इति कोऽपि निकषः न सम्यक् न भवति खलु अतः तत्र पूर्वं तत्र उत्पत्तेः पूर्वं सर्वदा स्थातव्यम् अपि पूर्वक्षणे अपि स्थातव्यम् इति निकषत्रयम् अस्माभिः प्राप्तं खलु निकषत्रयम् अस्माभिः प्राप्तं नाम कारणं किम् इति निर्धारणं कर्तुम् इच्छामः तस्मिन् समये वयं पश्यामः अत्र अस्तु निकषत्रयं स्वीकृत्य एकम् तत्र पश्यामः एषः निकषः अस्तु तत् समीचीनं वा अस्तु अस्ति वा कार्याधिकरणे अस्ति वा अस्तु समीचीनं पूर्वं तत्र उत्पत्तेः पूर्वं सर्वदा अस्ति वा अस्तु समीचीनं तदनन्तरं कार्योत्पत्तेः पूर्वक्षणे अपि अस्ति वा एतत् सर्वम् अस्ति चेत् वयम् अस्तु एतत् कारणमिति स्वीकर्तुं शक्नुमः यदि उत्तरं कस्यापि उत्तरं तत्र न इति अस्ति चेत् तत् कारणं नास्ति इति निर्धारणं कर्तुं अस्माकं विश्वासः अस्ति खलु तत् कारणं न भवेत् इति विश्वासः अस्ति अतः तत्र कार्याधिकरणे स्थातव्यम् इति एतत् सर्वं प्राप्तम् अस्तु हा धन्यवादः भगिनी हा समीचीनं
चेक्लिस्ट् इति वयं तत्र वदामः तादृशं
किन्तु तत्र चेक्लिस्ट् इति हा तत्तु निकषानां क्रैटीरियन् हा नाम हा सत्यं यतोहि एतत् सर्वम् अस्ति उत्तरं सर्वदा आम् इति अस्ति चेत् तत् कारणम् इति स्वीकर्तुं सत्यं
क्रमः अपि तादृशमेव भवेत् प्रथमं द्वितीयं तृतीयम् इति
सत्यं क्रमः अपि सत्यं भगिनि हा क्रमः अपि हा एषः एव क्रमः भवेत् सत्यं इदानीं तत्र नूतनप्रश्नः आगच्छति इदानीं तत्र नूतनप्रश्नः कः इत्युक्ते तत्र वयं चिन्तयामः कपालः घटं प्रति कारणं तत्र चक्रं कारणम् अपि दण्डः कारणं कपालः अपि कारणम् इति चिन्तनम् अस्ति हा किन्तु तत्र प्रायशः अद्य तत्र समयः नास्ति किन्तु अग्रिमे वर्गे वयं पश्यामः तत्र कपालः कथं कारणम् इति यदि वक्तुम् इच्छामः तत्र समस्या का इति अग्रिमे सप्ताहे पश्यामः तर्हि अत्र तदनन्तरम् एव तत्र अन्योन्याभावस्य तत्र निरूपणं भवति अन्योन्याभावस्य कृते तत्र तादात्म्यसम्बन्धस्य अपेक्षता तत्र करणीयमस्ति अतः अस्तु एतावत् समीचीनमस्ति प्रश्नः
आम् तत्र पूर्वस्मिन् परिच्छेदे अतः न अपत्तिः कः अर्थः
आपत्तिः नाम यदि तत्र वयं केवलं तत्र सर्वदा स्थातव्यम् इति वदामः तत्र किं भवति घटः अपि स्वं प्रति कारणम् इति आपत्तिः नाम तद् न इच्छामः तद् समीचीनं नास्ति किन्तु केवलं सः एव निकषः इति चिन्तयामः तत्र दण्डः अपि स्वं प्रति कारणं भवति किन्तु तत् समीचीनं नास्ति सा आपत्तिः वयं या भवति तां वयं न इच्छामः आपत्तिः नाम आपत् इति तत्र डेञ्जर् इति तत्र तादृशपरिस्थितिः तादृशी परिस्थितिः भवति किन्तु तद् वयं न इच्छामः अस्तु अस्तु तर्हि तत्र विरमाम प्रश्नास्सन्ति चेत् प्रश्नास्ति चेत् पृच्छन्तु धन्यवादः नमस्कारः अग्रिमे वर्गे मिलामः